अश्वावते प्रथमो घोष गच्छति सुप्रावीरिन्द्रमर्त्यस्तभोतिभिः तमित्प्रणक्षिवसुना भवीजसा सिन्धुमापो यथाभितो विचेतसः आपो न देवीरुपयन्ति होत्रिणमवः पश्यन्ति विदतं यथा रजाः प्राचैर्देवासः प्रणयन्ति देवजम् ब्रह्मप्रियम् जोषयन्ते वरा इव अधित्वजो रदधा उख्या अम्बचो यतस्रुचा मिथुनाजास पर्यतः असंयत्ता व्रतेते क्षेति पुष्यति भद्रा शक्तिर्यजमानाय सुन्वते आदङ्गिराः प्रथमम् दधिरे वज इद्धाग्नजः शम्याजे सुकृत्यया सर्वम् पडे समविन्दन्त भोजनमश्वावन्तम् गोमन्तमा पशुन्नराः यज्ञैरथर्वा प्रथमः पथस्तते ततः सूर्यो व्रतपापेन आजनि आगा आजदुशना काव्यस्य च जमस्य जातममृतै यजामहे मर्हिर्भाजत्स्वपत्याय व्रजतेऽर्को भा श्लोकमाघोषते दिवि ग्राभाजत्र वदति कारुरुख्या अस्तस्येदिन्द्रो अभिपित्वेषु रण्यति